नमस्कारः आदौ वन्दनं कृत्वा अनन्तरं रघुवंशस्य मङ्गलश्लोकं च उक्त्वा आरम्भं कुर्मः. सरस्वती नमस्तुभ्यं वरदे कामरूपिणि अहं करिष्यामि सिद्धिर्भवतु मे सदा. वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये जगतः ते पार्वती परमेश्वरौ. वयमद्य द्वाविंशतितमश्लोकः श्लोकादारभ्य पञ्चविंशति वयं पठिष्यामः. इतः पूर्वं दिलीपस्य गुणानामेव वर्णनमासीत्, तदेव इदानीमपि अनुवर्तते पूर्णतनश्लोके. तन्नाम एकविंशतितमः श्लोकः. पात्मानमत्रस्तः भेजे धर्ममनातुरः अग्रधुरादरे सोऽर्थम् असक्तः सुखमन्वभूत्. असक्तः विरक्तः विषयेषु अनासक्तः इति अपि वक्तुं शक्यते. अनासक्तः सन् सः अर्थमपि अनुभूतवान्, आत्मनः रक्षणं निर्भयं कृतवान्. अनातुरः नाम अयोगी सन् उद्विग्नः न भवति तस्य मनः, अनुद्विग्नः सन् धर्मम् आश्रितवान्, तादृशः दिलीपः. इदानीं द्वाविंशतितमे श्लोके तस्मिन् दिलीपे केचन गुणाः सन्ति. आदौ द्रष्टुम् एवं भाति यत् गुणद्वयमपि परस्परविरुद्धभावेन गुणद्वयमपि अस्ति इति. यस्य ज्ञानमस्ति सः वदत्येव, किन्तु मौनं. तथैव यस्य शक्तिः अस्ति, सामान्यतया लोके पश्यामश्चेत् शक्तिमान् क्षमावान् न भवति. शक्तिमन्तः स्वस्य शक्तेः अथवा उपयोगं कुर्वन्त्येव. अनन्तरं ये दानि आत्मनः ख्यापनमपि इच्छन्ति, अहं दत्तवान् इति अन्ये जानन्तु इति सामान्यतया लोके वयं पश्यामः. किन्तु दिलीपे एते गुणाः एव विरुद्धभावेन विरोधभावेन तिष्ठन्ति. श्लोकः श्लोकमहं श्लोकभागं पठामि, कृपया अनुवदन्तु. म्यूट् भवति चेदपि चिन्ता नास्ति, सर्वे अपि वदामः. ज्ञाने मौनं क्षमाशक्तौ,
ज्ञाने मौनं क्षमाशक्तौ,
ज्ञाने विपर्ययः गुणानुबन्धित्वात्
गुणानुबन्धित्वात्
तस्य सप्रसवा इव अत्र पदविभागं कुर्मः. ज्ञाने मौनं क्षमा शक्तौ, त्यागे श्लाघाविपर्ययः, गुणाः गुणानुबन्धित्वात् सप्रसवाः इव. एकवारं सर्वे अपि श्लोकमेव पश्यन्तः पदविभागम् अपश्यन्तः वदामः. ज्ञाने मौनं क्षमा शक्तौ, त्यागे श्लाघाविपर्ययः, गुणानुबन्धित्वात् तस्य सप्रसवाः इव. विभागः कृतः. अग्रिमसोपानम् अन्वयस्य क्रमः, अन्वयं कथं कुर्मः इति. अत्र अन्वयार्थं क्रियापदम् अपेक्षितं. किं भवति क्रियापदम्? वस्तुतः श्लोके पश्यामः तर्हि अध्याहारः करणीयः भवति. अस्ति, सन्ति इति क्रियापदस्य सामान्यतया अध्याहारः क्रियते. यत्र क्रियापदं नास्ति अस्ति, सन्ति, भवति इति. सम्पूर्णश्लोकस्य एकत्र अन्वयः भवति. सन्ति, गुणाः सन्ति, तस्य दिलीपस्य गुणाः सन्ति. तस्य नाम कस्य? दिलीपमहाराजस्य, दिलीपराजस्य. तस्य गुणाः सन्ति. के गुणाः? प्रथमपङ्क्तौ षड् गुणाः उक्ताः सन्ति. ज्ञानं, मौनं, क्षमा, शक्तिः, त्यागः, श्लाघाविपर्ययः. अत्र पश्यामः चेत् युगलम् एक गुणयुगलम् एक पेर्, ज्ञाने मौनं, क्षमा शक्तौ, त्यागे श्लाघाविपर्ययः इति दत्तः अस्ति. अत्र सप्तमी विषयसप्तमी नास्ति, सत्सप्तमी अस्ति. ज्ञाने सति मौनं, मौनमाश्रयति. ज्ञाने सति अपि सत्यपि इति करणीयः. पुनः अपि ज्ञाने सत्यपि मौनमाश्रयति, शक्तौ सत्यपि क्षमा भवति तस्य, शक्तिः अस्ति चेदपि, शक्तौ सप्तमी विभक्तिः, शक्तौ सत्यपि क्षमां भजते, क्षमाम् आश्रयति. त्यपि, त्यागः नाम दानं, त्यागे सत्यपि श्लाघाविपर्ययः तस्य इति अन्वयः प्रथमपङ्क्तेः. श्लाघाविपर्ययः नाम तस्य सामान्य अर्थः, सरलः अर्थः अस्ति प्रशंसा विमुखः, प्रशंसापेक्षते एव विपर्ययः. श्लाघनस्य विपरीतभावः. एवं गुणाः तस्मिन् सन्ति. एते गुणाः, द्वितीयां पङ्क्तिं पश्यामः. गुणाः तस्य, तस्मिन् एते षडपि गुणाः परस्परं विरोधभावेन तिष्ठन्ति इति भाति किल. गुणानुबन्धित्वात् परस्परम् एते गुणाः सहचरन्ति, सहयोगं कुर्वन्ति. यद्यपि द्रष्टुं विपरीतगुणः इव अस्ति. यस्य ज्ञानमस्ति सः प्रगल्भः भवति किल, भाषते सम्यक्, किन्तु मौनं भजति. तर्हि विपरीतगुण गुणयोः सत्योः अपि तत्र अनुबन्धित्वम् अस्ति, सहचारित्वम् अस्ति. परस्परगुणद्वयं विपरीतभासमानौ द्वौ गुणौ अपि परस्परसहयोगं कृत्वा तस्य चरित्रं, तस्य शीलं वर्धयन्ति इति अत्र भावः. गुणाः गुणानुबन्धित्वात्, गुणानुबन्धित्वम् अनुबन्धित्वम् इत्युक्ते सहं सहचरन्ति, मिलित्वा तस्य उत्कर्षयन्ति स्वभावम्, इतोपि वर्धयन्ति गुणानुबन्धित्वात्. कथम् इति कालिदासस्य, कविवरकालिदासस्य उपमा बहु प्रसिद्धा. कथम् इति चेत् सप्रसवाः इव एते गुणाः तस्मिन् विलसन्ति इति प्रदर्शयति. सप्रसवाः नाम सोदराः. एकस्मिन् एव गर्भे ये जन्म प्राप्नुवन्ति ते एव सोदराः किल, उदरे जाताः इति. तादृशं सप्रसवाः. गृहे पञ्च अथवा चत्वारः अथवा त्रयः अथवा द्वौ भ्रातरः सन्ति चेत् तेषु प्रायः लोके पश्यामश्चेत् स्वभावे साम्यं न भवति. कदाचित् बहु भिन्नस्वभाववन्तः भवन्ति ते. तदा लोके जनाः किं वदन्ति, पञ्च अङ्गुल्यः अपि समानः तथैव एते सहोदराः, भिन्नस्वभाववन्तः तथापि सहोदराः, सह मिलित्वा तिष्ठन्ति, एकस्मिन् गृहे वसन्ति, सह वासं कुर्वन्ति, तथैव एते गुणाः अपि कदाचित् परस्परं विरोधभावः भवति चेदपि मिलित्वा गुणे सति तस्य शीलं तस्य स्वभावम् इतोपि प्रकाशयन्ति इति अत्र अर्थः, सामान्य अर्थः. इदानीं वयम् अन्वयक्रमं द्रक्ष्यामः. अन्वयक्रमे एवमस्ति, पश्यतु, ज्ञानं मौनम् इति गुणद्वयमस्ति. वस्तुतः तद् किमर्थम् अत्र प्रथमायां दर्शितम् इत्युक्ते सत्सप्तमी अस्ति इति कारणेन एकं सप्तमी विभक्तिं प्राप्नोति. ज्ञाने सत्यपि मौनम्, शक्तिः चेदपि क्षमा, शक्तौ क्षमा, त्यागे दाने सत्यपि श्लाघाविपर्ययः, विरुद्धगुणौ किन्तु परस्परं सहचारिणौ, सहचरन्ति, एकः गुणः अपरस्य गुणस्य करोति न तु विरोधं करोति. इत्थम् एवम्, इत्थम् इति अध्याहृतं श्लोके नास्ति. तस्य दिलीपस्य गुणाः सन्ति, के सन्ति गुणाः सन्ति, के इव सप्रसवाः इव, अस्तु, सप्रसवाः इव केन कारणेन एवं सन्ति गुणाः इत्युक्ते भवति किल, तद् किम् इत्युक्ते गुणानुबन्धित्वं, गुणानां सहचरित्वं, सहचारि गुणाः सन्ति बन्धित्वात् इति अर्थः. अन्वयार्थं पश्यामः चेत् इतोपि स्पष्टतरं भवति. ज्ञाने मौनम्, अत्र व्याख्यानभागः मल्लिनाथस्य टीकातः एव बहूनि वाक्यानि उद्धृतानि सन्ति, तदहं साक्षात् कानिचन वाक्यानि तत्र लिखितवती अस्मि. ज्ञाने मौनम्, ज्ञाने मौनम् इति न, अत्र मल्लिनाथेन उक्तं परवृत्तान्तज्ञाने सति अपि मौनम्. अन्यस्य विषये यत् सर्वत्र वक्तुं योग्यं, प्रकाशयितुं योग्यं नास्ति चेत् मौनं भजन्ति. यद् न वक्तव्यं तद् न प्रकाशयन्ति, तद् रहसि एव स्थापयन्ति परवृत्तान्तज्ञाने इति. कारणं किं, वयं पूर्वमेव दृष्टवन्तः रघूणां मितभाषिणाम् इति पठितवन्तः, सत्याय मितभाषिणां, सत्यरक्षणाय. सत्यम् इत्युक्ते किं, सत्यं ब्रूयात् प्रियं ब्रूयात् इति वाक्यमस्ति, न ब्रूयात् सत्यम् अप्रियम्. कदाचित् सत्यं वदामि इति कारणेन कटुवचनं वदति चेत् किं भवति, अन्यस्य खेदः भवति, दुःखं भवति. अतः न अस्य उपतापि वचनं मौनं व्रतचरिष्णुता, अस्य वचनम् अन्यं न तापयति, अन्यस्य मनस्तापं न जनयति, तादृशं वचनम् एव मौनम् इति तस्य अर्थः. मौनसाधनम् इत्युक्ते स्वार्थ साधनार्थं मौनं ये आश्रयन्ति तस्य नाम मौनं न, मौनम् एक व्रतः अस्ति, व्रतचरिष्णुता, व्रतचरणं, व्रतस्य आचरणम् इव मौनमस्ति. अतः एव मौनात् मुनिः इति वदन्ति. अस्य यः मौनी अस्ति अस्य वचनम् उपतापि न भवति, अन्यस्य तापं न जनयति, मनस्तापं, मनःखेदं न जनयति इति अर्थः. तस्य एव अर्थः मौनमस्ति. कदाचित् शक्तिहीनः अपि मौनं तिष्ठति, मौनी भवति, तस्य व्रतम् इति न भवति, सः तु मौनभावं तावदेव, किन्तु तस्य मनसि तादृशगुणः न भवति यत् अन्यस्य दुःखं न कारणीयं, तादृशं तद् व्रतं, सत्यपालनाय मौनं भजति चेदेव तद् व्रतं भवति, सः व्रतः भवति. अस्तु, द्वितीयः गुणः शक्तौ सत्यपि क्षमा भवति तस्मिन्। शक्तिः तस्मिन् शक्तिः अस्ति, महती शक्तिः अस्ति। कीदृशी शक्ति? शक्तिमान् अस्ति, युद्धे समर्थः अस्ति, बुद्धिशक्तिः अस्ति, अनन्तरं सैन्यबलमस्ति। सत्यपि अनन्तरं तस्य सर्वविधसामर्थ्यमपि अस्ति, सर्वदृष्ट्या अपि सः शक्तिमान्, तथापि क्षमां भजति। लीनाथः किं वदति? प्रतीकारसामर्थ्ये सति अपि अपकारसहनम्। अन्यः कश्चन अपकारं करोति इति चिन्तयतु, दर्शयतु भगिनि। प्रतीकारसामर्थ्ये सत्यपि अपकारसहनम्। प्रतीकारः नाम कोऽपि अपकारं करोति इति चिन्तयतु, तस्य रिवेञ्ज्। प्रतीकारसामर्थ्यं नास्ति इति न खलु दिलीपस्य? सम्यक् सः प्रतीकारं स्वीकर्तुं शक्नोति। यः कोऽपि तं प्रति दौष्ट्यं दुष्टभावम् आचरति, एषः अपि तं शिक्षयितुं जानाति एव। किन्तु प्रतीकारस्य सामर्थ्ये सत्यपि, यद्यपि सः प्रतीकारं विदधातुं समर्थः, तथापि सः अन्यस्य अपकारं सहते, अपकारसहनम्। उपकारं बहु औदार्येण करोति, किन्तु अन्यस्य अपकारं यावत् शक्यते तद् सहते सः। वयं सुभाषितेषु अपि पठामः, शक्तानां भूषणं क्षमा इति भवति। ये शक्तिमन्तः सन्ति तेषां क्षमा भूषणम् इव भवति। ये शक्तिहीनाः सन्ति तेषु क्षमा भूषणं नास्ति वा इति प्रश्नः कृतः चेत्, ये शक्तिरहिताः सन्ति तेषु क्षमा एकः गुणः, उत्तमगुणः तावदेव। किन्तु ये शक्ताः, सर्वविधिना ये शक्ताः, तेषु क्षमा भूषणायते, भूषणं भवति, तं जनं क्षमागुणः अलङ्करोति इति एव अर्थः। अतः ये शक्तिहीनाः सन्ति तैरपि अहं शक्तिहीनः अस्मि किन्तु मयि क्षमा अस्ति इति मौनेन न स्थातव्यं, तेन तत्सामर्थ्यवर्धने प्रयत्नः करणीयः। यस्य सामर्थ्यं वर्धमानम् अस्ति तेन क्षमागुणस्य वर्धनं करणीयम् इति एव अत्र भावः। अस्तु, अग्रे युगलद्वयं। त्यागे श्लाघाविपर्ययः। त्यागे नाम दाने, दाने दानकरणे, दानकरणं सम्यक् करोति, औदार्येण करोति, किन्तु तद्विषये ख्यापनं न करोति, स्वस्य ख्यापनम्। अहं दानशीलः, मत्सदृशः, अन्यः कोऽस्ति लोके इत्यादिकं सः ख्यापयितुं न इच्छति। त्यागे श्लाघाविपर्ययः। दाने सत्यपि आत्मप्रशंसायाः अभावः, आत्मप्रशंसां न करोति, न वा कारयति। एवं षड्गुणाः अत्र उक्ताः खलु, एते ज्ञाने मौनं, शक्तौ क्षमा, त्यागे श्लाघाविपर्ययः। एते कथं सन्ति तस्मिन्? एते गुणाः तस्य सप्रसवाः इव सन्ति, गुणानुबन्धित्वात्। गुणानुबन्धित्वात् सप्रसवाः इव सन्ति। गुणानुबन्धित्वात् इत्युक्ते सहचरन्ति, एते गुणाः परस्परं, एकः गुणः अन्यस्य गुणम्, अन्यगुणं सेवते, सहचरन्ति, मिलित्वा ते गुणाः तस्मिन् विलसन्ति इति अर्थः। यथा उदाहरणम् अत्र दर्शितं, करे हस्ते विरुद्धाकाराः पञ्चाङ्गुल्यः यथा एकत्र तिष्ठन्ति, कारणम् एकम् एव जन्मस्थलं तेषाम्, एवमेव अङ्गुलीनां जन्मस्थलं, तत्र ते पञ्च अङ्गुल्यः अपि तिष्ठन्ति, तथैव एकस्मिन् एव गृहे विरुद्धगुणवन्तः सोदराः एकत्र यथा भवन्ति, तथा विरुद्धाः अपि गुणाः, विरुद्धाः प्रतीयमानाः गुणाः न विरुद्धाः, किन्तु विरुद्धाः इव दृश्यन्ते, भान्ति, ते गुणाः दिलीपे अविरोधेन एव स्थिताः शोभन्ते इति श्लोकस्य सामान्य अर्थः। श्लोकं वयम् एकवारं सर्वे अपि पठामः मिलित्वा। ज्ञाने मौनम् तौ त्यागे श्लाघाविपर्ययः गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव। अग्रिमं श्लोकं पश्यामः। एवं युवा एव दिलीपः, न तु वृद्धः। युवा अपि सः ज्ञानेन वृद्धः, बुद्धिमान्, वृद्धः, पक्वबुद्धिः अस्ति तस्य इति दर्शयितुम् अयं श्लोकः। अहं वदामि, कृपया अनुवदन्तु। अनाकृष्टस्य विषयैः विद्यानां पारदर्श्वनः तस्य धर्मरतेरासीत् वृद्धत्वं जरसा विना अत्र पदच्छेदः अनाकृष्टस्य विषयैः विद्यानां पारदर्श्वनः तस्य धर्मरतेः आसीत् वृद्धत्वं जरसा विना। परं पठामः। अनाकृष्टस्य विषयैः विद्यानां तस्य धर्मरतेः आसीत् वृद्धत्वं जरसा विना। पारदृश्वनः, क्षम्यताम्, अत्र दोषः अस्ति, पारदृश्वनः। अन्वये एवं पश्यामः। अत्र क्रियापदम् अस्ति एव, आसीत् इति क्रियापदं दृश्यते। आसीत् किम्? आसीत् तस्य, दिलीपस्य वृद्धत्वम् आसीत्, वृद्धभावः, वृद्धस्य भावः वृद्धत्वं, आसीत्। विना वृद्धत्वं जरसा विना। जरा नाम जरस् अथवा जराशब्दः वृद्धत्वम् इत्येव अर्थः। वार्धक्यं, जरा, जन्म मृत्यु जरा व्याधिः, संसारस्य दोषाः इति वदन्ति किल, जन्म मृत्यु जरा व्याधिः, एवं जरा, वृद्धत्वं, वार्धक्यं, तस्य जरसा विना। कस्य जरसा विना वृद्धत्वम् आसीत्? वार्धक्यं विना अपि वार्धक्यभावः आसीत्। कस्य? दिलीपराजस्य। कीदृशस्य दिलीपराजस्य इति प्रथमां पङ्क्तिं पश्यन्तु। अनाकृष्टस्य विषयैः अनाकृष्टस्य। विषयः नाम कः? विषयः नाम शब्दस्पर्शरूपरसगन्ध इति विषयाः भवन्ति। एते शब्दः एव कर्णस्य, श्रोत्रस्य विषयः भवति, स्पर्शः एव भवति, रूप नेत्रस्य विषयः रूपम्, अनन्तरं रसः रसनायाः जिह्वायाः विषयः रसः भवति, गन्धः नासा घ्राणेन्द्रियस्य विषयः भवति गन्धः। एतैः विषयैः लोके यद्यत् यत्किमपि अस्ति एतेषु पञ्चभूतेषु एव अन्तर्भवन्ति किल, तेषां गुणेषु। तर्हि तैः विषयैः अनाकृष्टः भवति इत्युक्ते इन्द्रियाणां वशे न भवति, इति सः स्वयं वशीकरोति इति अर्थः. अनाविषयैः अनाकृष्टस्य तस्य. अस्तु, पुनः कीदृशस्य? विद्यानां पारदृश्वनः. क्षम्यताम्, अत्र दर्श्वनः इति अस्ति, विषयाणां पारदृश्वनः, विद्यानां पारदृश्वनः. श्रुतवन्तः स्याम लोके पारङ्गतः, वेदानां पारङ्गतः, शास्त्रपारङ्गतः इति वदामः. तदे तस् सः एव अर्थः अत्र पारदृश्वनः इति पदस्य. अपि विद्यानां पारदृश्वनः, विद्याः नाम चतुर्दश विद्यास्थानानि उक्तानि सन्ति. यः कोऽपि अध्ययनं करोति, शास्त्राध्ययनं सम्यक् शास्त्रम् अधीतवान् इति चेत् चतुर्दश विद्यास्थानानि अपि अधीतवान् वा इति प्रश्नः. चतुर्दश विद्यास्थानानि कानि इति वयम् अन्वयार्थे पश्यामः अग्रे. विद्यानां पारदृश्वनः. पारदृश्वनः इति शब्दः अपि षष्ठी विभक्तिः. पृष्ठस्य पारदृश्वन् शब्दः पारदृश्वनः, आत्मा इति शब्दः इव गच्छति. पुनः कीदृशस्य? धर्मरतेः तस्य. धर्मे रतिः यस्य सः, धर्मरतेः तस्य. धर्मे निरतः भवति धर्मरतिः. धर्मरतेः तस्य जरसा विना अपि वृद्धत्वम् आसीत्. अतः इदानीं वयम् अन्वयं प्रति प्रतिपदार्थं पश्यामः. अन्वयः तस्य प्रतिपदार्थः. विषयैः अनाकृष्टस्य. शब्दस्पर्शरूपरसगन्धाः इति एते विषयाः भवन्ति, पञ्चभूतानां विषयाः. अत्र एव इन्द्रियाणि चरन्ति किल, शब्दस्पर्शरूपरसगन्धाः एते विषयाः भवन्ति. एतैः विषयैः सः अवशीकृतः भवति इत्युक्ते इन्द्रियाणां स्वामी भवति, न तु इन्द्रियाणां दासः इति अर्थः अत्र. विषयैः अनाकृष्टः. विद्यानां पारदर्श्वनः, पारदृश्वनः क्षम्यताम्. विद्यानां पारदृश्वनः नाम चतुर्दश विद्यास्थानानि सन्ति. तानि ताः विद्याः सम्यक् सः प्राप्तवान् इति अर्थः. अध्ययनं सम्यक् कृतवान् आगमानां. कानि? अहमत्र चत्वारि चत्वारि षड् इति उल्लिखितवती अस्मि. प्रथम चत्वारि विद्यास्थानानि चतुर्वेदाः, चत्वारः वेदाः. सर्वे जानीमः ऋग्वेदः, सामवेदः, यजुर्वेदः, सामवेदः, अथर्वणवेदः. पुनः चत्वारः उपवेदाः भवन्ति, गन्धर्ववेदः, आयुर्वेदः, धनुर्वेदः, इतोपि एकं भवति, कोऽपि स्मरति वा? गन्धर्ववेदः, आयुर्वेदः, धनुर्वेदः, हरि ओम्. किं
तत् गृहं यज्ञकुण्डं सर्वं स्थापयति स्थापत्यवेदाः,
किन्तु तद् उपवेदे न अन्तर्भवति इति चिन्तयामि. अहं वदामि स्मृत्वा. बहु प्रसिद्धमेव चत्वारः उपवेदाः भवन्ति. अनन्तरं षड् वेदाङ्गानि भवन्ति. वयं सर्वे जानीमः शिक्षा, कल्पः, ज्योतिष्, अनन्तरं ज्योतिषशास्त्रं भवति, अनन्तरं शास्त्रं भवति, व्याकरणं भवति. एते षड् वेदाङ्गानि भवन्ति. अतः चतुर्दश विद्यास्थानानि. अतः स विद्यानां पारदृश्वनः इति यथा यदा वदति तदा एवमेव सर्वाः अपि सः अधीतवान् एतत् एतानि सर्वाणि विद्यास्थानानि अपि सः ज्ञातवान् आसीत् इति अर्थः. विद्यानां पारदृष्वनः, पारं दृष्टवान् इति पारदृष्वा भक्तिरूपं, पारदृष्वन् शब्दः आत्मन् शब्दः इव भवति. पारदृष्वा पारदृष्वानौ पारदृष्वानः. अत्र षष्ठी एकवचनं पारदृष्वनः, आत्मा आत्मानौ आत्मानः पारदृष्वनः. एतासां पारम् अन्तं दृष्टवान् इति अर्थः. अन्यतीरं पश्यति किल, नद्याः एकस्मात् तीरात् अन्यतीरं पश्यति इत्युक्ते सम्पूर्णं जानाति तस्य विषये. पुनः षष्ठीविभक्त्यां प्रयुक्तः शब्दः धर्मरतेः, धर्मणि धर्मे निरतः, धर्मे रतिः यस्य सः धर्मरतिः, धर्मरतेः तस्य, धर्मानुरागिणः तस्य, जरसा विना वृद्धावस्थाम् अप्राप्य अपि वार्धक्यं. जरस् शब्दस्य, जरा इति आकारान्तशब्दस्य सकारान्तः अपि आदेशः भवति. जरसा विना वृद्धत्वम् आसीत्. वृद्धत्वं नाम अत्र वयसा वृद्धत्वं न, शीलवृद्धः, ज्ञानवृद्धः इति वक्तुं शक्यते. सः शीलवृद्धः आसीत्, ज्ञानवृद्धः. अस्तु. एवम् एतद् विषये एकं कालिदासस्य एव वाक्यं कुमारसम्भवे अपि उपलभ्यते. न धर्मवृद्धेषु वयः समीक्ष्यते इति अस्ति. एवमस्ति, पार्वतीदेवी कठिनं तपः करोति वने. अल्पवयः तस्याः कन्या अपि बहु कठोरं तपः करोति. वयं पठितवन्तः स्याम, शिक्षादिपुस्तकेषु अपि आसीत्, बहुशैत्यकाले जले निमग्ना भूत्वा तपः करोति, उष्णकाले अग्नौ स्थित्वा तपः आचरति. एवं वयं पठितवन्तः. तादृशं सा तपः करोति इति श्रुत्वा मुनयः तस्याः दर्शनार्थम् आगच्छन्ति स्म. मुनयः तु बहु वृद्धाः किल, वयसा अपि ज्ञानेन अपि सर्वदृष्ट्या वृद्धाः. ते एतस्याः दर्शनार्थम्, एतस्याः अनुग्रहं प्राप्तुम् आगच्छन्ति. कथम् इत्युक्ते, तत्र कविः वदति, न धर्मवृद्धेषु वयः समीक्ष्यते. यः धर्मवृद्धः भवति, यः शीलवृद्धः भवति, यः ज्ञानवृद्धः भवति अथवा या भवति, तस्य आदरः सर्वत्र भवत्येव. विद्वान् सर्वत्र पूज्यते, तादृशं धर्मवृद्धः अपि. एवं दिलीपः आसीत्. अनन्तरं मनुस्मृतौ अपि एकवाक्यमस्ति, कः वृद्धः इति लक्षणं, वृद्धस्य लक्षणं वदति. न तेन वृद्धो भवति येन अस्य फलितं शिरः, यो वा युवाप्यधीयानः तं देवाः स्थविरं विदुः. स्थविरः नाम वृद्धः. वर्धते इति वृद्धः किल, वर्धमानः प्राप्तवान् इत्येव वृद्धः, अथवा केवलं वयसा वर्धनं प्राप्तवान् चेत् सः वृद्धः न, केवलं तस्य केशाः फलिताः इति कृत्वा सः वृद्धः न. तर्हि इत्युक्ते युवा अपि यदि अधीयानः स्वाध्यायनिरतः, तपस्वाध्यायनिरतः इति, युवा अपि अधीयानः, अत्र स्वाध्यायः नाम आत्मावलोकनं, यः पुनः पुनः करोति, स्वदोषान् निवारयति, स्वाध्याये निरतः भवति, सततं ज्ञानार्जने, सततं स्वस्वपरिष्कारे तादृशः अधीयानः तं देवाः वृद्धं विदुः. देवाः तमेव वृद्धं वदन्ति, न तु केवलं फलितकेशः कश्चन भवति चेत् तं वृद्धम् इति न वक्तुं शक्यते, न वक्तुं शक्नुमः इति अत्र भावः. वेदज्ञानं तस्य ज्ञानमेव किल कर्मणाम् आधारः भवति चेदेव कर्म सुष्ठु सम्यक् भवति. अत्र दिलीपस्य विषये वेदज्ञानं तस्य आधारः, कर्मणाम् आधारः. सत्यदया क्षमादिगुणाः ये सन्ति तस्य कर्मणां पोषकाः भवन्ति. एतैः गुणैः यः यः कोऽपि कार्याणि करोति ते एते गुणाः तस्य कर्माणि इतोपि शोभयन्ति किल, प्रकाशयन्ति. वैराग्यमपि आसीत् तस्मिन्, एतेन कारणेन सः कामः क्रोधः इत्यादिभ्यः गुणेभ्यः रक्षणं प्राप्य शीलवान् अस्ति. मनसः पक्वतां प्राप्तवान् इति अर्थः. लघुवयसि अपि सः पक्वमनाः आसीत् इति एतस्य श्लोकस्य भावः. श्लोकम् एकवारं सर्वे अपि पठामः. अनाकृष्टस्य विषयैः विद्यानामाकृष्टः तस्य धर्मरतेरासीत् वृद्धत्वं जरसा विना. चतुर्विंशः श्लोकः. सः स्वयमपि गुणवान्, प्रजावत्सलः अपि आसीत्. प्रजाः स्वपुत्रतुल्यं सः कथम् इति पश्यामः. प्रजानां विनयाधानात्
रक्षणाद्भरणादपि
सपिता पितरस्तासां केवलं जन्महेतवः. पदच्छेदं पश्यामः. प्रजानां विनयाधानात् रक्षणात् भरणात् अपि सः पिता पितरः तासां केवलं जन्महेतवः. प्रजानां विनयाधानात् रक्षणात् भरणात् अपि सः पिता पितरः तासां केवलं जन्महेतवः इति. अन्वयक्रमः एवं भवति. पश्यतु, अत्रापि क्रियापदं न दृश्यते खलु, अध्याहारः क्रियते. भूतकाले अध्याहारः सामान्यतया आसीत्, अभवत् इति कर्तुं शक्नुमः. अत्र केषुचित् पुस्तकेषु अभूत् इति लुङ्लकारस्य प्रयोगं कृतवन्तः. सः अभवत्, सः अभूत्. द्वितीयां पङ्क्तिं पश्यन्तु, तत्र अभूत्. सः कः अभूत्? सः पिता अभूत्. कासां पिता? प्रजानां पिता अभूत्. प्रजानां पिता, प्रजानां पितरः तु भवन्ति खलु. एषः कथं प्रजानां पिता अभूत् इति पृष्टः चेत्, प्रजानां विनयाधानं कृतवान्, प्रजानां रक्षणं कृतवान्, प्रजानां कृतवान्. अतः विनयाधानात् रक्षणात् भरणात् एतेषां त्रयाणाम् अपि एतैः त्रिभिः अपि कारणैः सः पिता तुल्यः आसीत्. विनयाधानात् रक्षणात् भरणात् एतस्य अर्थं वयं सविस्तरं पश्यामः. सः पिता अभूत्. सः पिता अभूत् चेत् प्रजानां वास्तविकपितरः सन्ति किल, जन्मदातारः. तेषां का गतिः इति चेत्, ते केवलं जन्महेतवः आसन् मात्रं, नाममात्रेण ते पितरः. जन्म दत्त्वा तेषां दायित्वं तत्र समाप्तम्. अन्यसर्वमपि दायित्वं राजा निरूढवान्, राज्ञः नियन्त्रणे सर्वे अपि उत्तमजीवनं कृतवन्तः इत्युक्ते पितॄणां दायित्वं न आसीत् इति न, तैः किमपि करणीयमेव न आसीत्, सर्वे अपि शीलवन्तः स्वस्वधर्मं सम्यक् पालितवन्तः इत्येव तत्र अर्थः. इदानीं प्रतिपदं पश्यामः. सः पिता अभूत् इति वदामः प्रजानां विनयाधानात्. विनयाधानम् इत्युक्ते विनयस्य आधानं कृतवान्, प्रजाः शिक्षितवान्. विनयति इति विनायकः इत्यपि वयं पठामः. देवः विनायकः, विनयति विशेषेण सर्वान् नयति. तथा विनयनम् इत्युक्ते अत्र विनयस्वभावः इति अपि भिन्नः, किन्तु अत्र कः अर्थः इत्युक्ते सम्यक् नयनम् भावः. अत्र विनयाधानं प्रजानां शिक्षायाः कर्ता इति एव अर्थः. विनयाधानम् आददाति इत्युक्ते करोति, प्रजानां शिक्षाः शिक्षां कारयति, प्रजानां विनयनं कारयति, करोति. सन्मार्गे प्रजाः प्रवर्तयति, सन्मार्गे प्रजाः अग्रे नयति. अस्तु, प्रजानां विनयाधानात् सः पिता अभूत्. केन हेतोः पिता अभूत्, कस्मात् हेतोः इत्युक्ते रक्षणात् करोति, भयहेतुभ्यः रक्षणं त्राणं, यथा आपत् आपदः निवारयति, आपन्निवारणं करोति प्रजानाम्. अनन्तरं किं करोति, भरणं तेषां. भरणं नाम पोषणम्, अन्नादि दत्त्वा, अन्नं जलं सर्वमपि सम्यक् कल्पयित्वा धान्यादिकं यथेष्टं तेषां राज्ये भवति, अन्नस्य अभावः न भवति, जलस्य कष्टं न भवति, सर्वमपि क्षीरस्य. अतः भरणम् अन्नादिद्वारा पोषणं कृत्वा अपि मातापितरौ एतानि त्रीणि अपि कार्याणि कृत्वा पुत्रस्य पुत्र्याः पालनं कुर्वन्ति किल, शिक्षणं कारयन्ति, रक्षणं कुर्वन्ति, भरणपोषणमपि कुर्वन्ति. राजा एतानि त्रीणि कार्याणि सम्यक् निरूढवान् इति अर्थः. अत्र अर्थ यदा पश्यामः, सः पिता अभूत् इति वदा इति शृणुमः. पिता यः जन्मदाता सः एव पिता न. गृहे यः कोऽपि साहाय्यं करोति, पाठयति, बोधयति, भयात् निवारयति अस्मान्, दूरीकरोति, सः मम पिता तुल्यः इति वयं वदामः किल. गृहे ज्येष्ठपिता अस्ति, अथवा मम पिता पितृसदृशः अस्ति, गुरुः अपि पितृसदृशः अस्ति इति वदामः. तत्र एकं सुभाषितमस्ति, अधः अस्ति भगिनि, तद् दर्शयतु. वयं सर्वे अपि पठितवन्तः स्याम, अन्नदाता भयत्राता, विद्यादाता तथैव च, चोपनेता च, पञ्चैते पितरस्मृताः इति एकं प्रसिद्धं सुभाषितं. पश्यतु, पञ्च अपि एते पितरः पितृस्थानम् अर्हन्ति. अन्नदाता यः अन्नं ददाति, कदाचित् सः मातुलः अन्नदाता, कदाचित् गृहे अन्यः कोऽपि ज्येष्ठः, कदाचित् पितामहः मातामहः यः कोऽपि भवितुम् अथवा ज्येष्ठभ्राता अन्नदाता. भयत्राता भयात् त्रायते, यः कोऽपि रक्षति सः पितृस्थानम् अर्हति. विद्यादाता कदाचित् पिता स्थः अथवा पिता कस्यचित् न भवेत् अथवा अन्यनगरे भवेत्, बालं वा बालां वा स्वगृहे स्थापयित्वा शिक्षणमपि कारयति कश्चन, तर्हि विद्यादाता सः एव तस्य व्यवस्थां कल्पितवान्, तादृशः अपि अथवा साक्षात् गुरुः आचार्यः अपि विद्यादाता भवति. तथैव च जनिता जन्मदाता पिता भवति, उपनेता यः उपनयनसंस्कारं कारयति, एते पञ्चे अपि कृताः इति। पश्यतु अत्र दिलीपः कानि कानि कार्याणि कृतवान्, अन्नं दत्तवान् किल अन्नदाता, भयात् त्रातवान् जनान् रक्षितवान् भयत्रात, अनन्तरं विद्यादाता शिक्षणं कारितवान् इति वयं दृष्टवन्तः, विनयाधानात् इति विद्यादाता, जनिता जनिता न आसीत् जन्मदाता न आसीत् उपनेता, सम्यक् नेतृत्वं कृतवान् तेषाम्। एवम् एतैः गुणैः सः पितृस्थाने स्थित्वा प्रजाः सम्यक् रक्षितवान् इति वयं वक्तुं शक्नुमः। श्लोकं पठामः, सरलः एव श्लोकः। प्रजानां विनयाधानात् भरणादपि सपिता पितरस्तासां केवलं जन्म हेतवः। हेतवः इति पदस्य अर्थः कर्तारः इति अस्ति, अन्यत्रापि हेतुः इति पदस्य अर्थः कर्ता इति आसीत्। हेतुः इति पदस्य कारणम् इति भवति, जन्मकर्तारः इति एव अर्थः। अन्यस्मिन् श्लोके अपि विशुद्धिश्यामिका वापि सदसद्व्यक्तिहेतवः इति पदमासीत्। सदसद्व्यक्तिः सहृदयाः कीदृशाः चेत् सत् असत् च विभागं कृत्वा दर्शयन्ति, जानन्ति द्रष्टुम् इति सदसद्व्यक्तिहेतवः। तत्रापि हेतुपदस्य कर्ता इत्येव अर्थः, अत्रापि जन्महेतवः इत्युक्ते जन्मकर्तारः जन्मदातारः। अद्यतन अन्तिमः श्लोकः, चतुर्थः श्लोकः। सः धर्मी आसीत् इति दृष्टवन्तः, धर्मवृद्धः आसीत् इति दृष्टवन्तः। तस्य धर्माचरणम् एव प्रमुखम् प्रमुखः उद्देशः आसीत् तस्य जीवने इति वदति। तस्य अर्थः कामः इति पुरुषार्थद्वयमपि धर्मार्थमेव भवति इति वर्णयति अत्र। कृपया अनुवदन्तु। स्थित्यै दण्डयतो दण्ड्यान्, परिणेतुः प्रसूतये, अप्यर्थकामौ तस्यास्ताम्, धर्म एव मनीषिणः, अत्र पदच्छेदः एवमस्ति। स्थित्यै दण्डयतः दण्ड्यान्, प्रसूतये अपि अर्थकामौ तस्य आस्ताम्, धर्मः एव मनीषिणः। पुनरपि एकवारं पठामि। स्थित्यै दण्डयतः दण्ड्यान्, परिणेतुः प्रसूतये, अप्यर्थकाम अपि तस्य आस्ताम्, धर्मः एव मनीषिणः। अत्र क्रियापदं स्पष्टं दृश्यते, आस्ताम् इति, तस्य आस्ताम् इति द्वितीयपङ्क्तौ। प्रथमपङ्क्तौ अपि वाक्यद्वयमस्ति, दण्ड्यान् दण्डयतः तस्य, दण्डयतः इति पदं षष्ठीविभक्त्याम् अस्ति, तथैव परिणेतुः षष्ठीविभक्त्याम् अस्ति। दण्डयतः तस्य, परिणेतुः तस्य इति, तस्य इति पदेन सह अन्वयः अस्ति। दण्ड्यान् इत्युक्ते दण्डयितुं योग्यान्, दण्डयतः दण्डयन् भवति सः, दण्डयन् नाम ददाति, करोति तेषां दण्डं कारयति। किमर्थं दुष्टानां दण्डनं करणीयं, दुष्टाः न दण्ड्यन्ते चेत् स्थितिः न भवति. स्थितिः नाम रक्षणं. जगत् स्थितिकर्ता विष्णुः, सृष्टिकर्ता इति पठामः, तथैव लयकर्ता शिवः, तथैव स्थित्यै, स्थितिः नाम रक्षणं, जगत् रक्षणाय, स्वस्य स्वस्याः प्रजायाः रक्षणाय स्थित्यै दण्डयतः तस्य. दण्ड्यान् इत्युक्ते दण्डयितुं योग्याः दण्ड्याः, तान् दण्ड्यान् अपराधिनः, तान् दण्ड्यान् दण्डयितुं योग्यान् जनान् दण्डयतः, दण्डयन् शासनं करोति, दण्डयतः तस्य. अत्र षष्ठी विभक्ति, अत्र दण्डयन् इति शत्रुप्रयोगः, तस्य षष्ठी, दण्डयतः तस्य. पुनः ते परिणेतुः तस्य, परिणयः नाम विवाहः, परिग्रहः, विवाहः, परिणयः, एते सर्वे पर्याय शब्दाः भवन्ति, पर्यायपदानि भवन्ति एतानि. परिणेतुः विवाहं करोति तस्य, किमर्थं परिणयः तस्य? प्रसूतये, प्रजोत्पत्यै, सन्तानस्य उत्पादनार्थमेव परिणयः, सार्थम् इति पूर्वमपि वयं दृष्टवन्तः एतत्, प्रजायै गृहमेधिनः इति पूर्वतनश्लोकेषु भवति, अहं चिन्तयामि सप्तमश्लोकः इति. कुलकम् इति एक पञ्चश्लोकानां गुच्छमस्ति किल, तत्र भवति एतत्, प्रजायै गृहमेधिनः. अत्र पुनः कविः तद् तं गुणं वदति, प्रसूतये परिणेतुः, प्रसूत्यर्थं, प्रजोत्पत्त्यर्थं, कुलस्य वर्धनार्थं, वंशपरम्परा वर्धनार्थं परिणेतुः, परिणयं यः करोति तस्य. परिणेता, परिणेतृशब्दः षष्ठी विभक्तिः, परिणेतुः. इदानीं प्रथमपङ्क्तौ एवं भवति अन्वयः, स्थित्यै दण्ड्यान् दण्डयतः, प्रसूतये परिणेतुः तस्य. अर्थकामौ अपि, अर्थः कामः इति पुरुषार्थद्वयं, पुरुषार्थचतुष्टयं भवति, धर्मार्थकाममोक्षाः इति. अत्र अर्थः इति एकः पुरुषार्थः, कामः इति अपरः पुरुषार्थः. तस्य अर्थकामौ अपि धर्मः एव आस्ताम् इति कविः वदति. सः न कामितवान् वा, तस्य कामनाः न आसन् वा इति चेत् आसन्. क्षत्रियस्य राज्ञः सः निष्कामः भवितुं न अर्हति किल. कामनाः भवन्ति चेदेव सः राज्यस्य वर्धनं कुर्यात्, प्रजापालने श्रद्धां दद्यात्. अतः तस्य अर्थाः अपि, तस्य कामः अपि आसन्, कामाः अपि आसन्. अनन्तरं तस्य पुरुषार्थे अर्थः अपि मुख्यस्थानं भजति, किन्तु एतौ द्वौ अपि धर्मार्थमेव कृतवान्, धर्ममेव आन्त्यः उद्देशः. अतः धर्ममेव सेवन्ते अन्ये सर्वे अपि, धर्मस्य एव सेवां कुर्वन्ति. अतः अर्थकामौ अपि तस्य धर्मः एव आस्ताम् इति वदति. धर्मे पर्यवसति, सर्वमपि धर्मे पर्यवसानं सर्वस्यापि. आङ्ग्ले वदन्ति सब्सर्व्स् इति. तस्य कामः अपि धर्मम् उपसेवते, तस्य अर्थः अपि, अर्थः पुरुषार्थे वित्तसङ्ग्रहणं, तत्सर्वमपि धर्मम् उपसेवते इति अर्थः. इदानीं किञ्चित् विस्तरेण पदानाम् अर्थं दृष्ट्वा श्लोकस्य अर्थं पश्यामः. स्थित्यै दण्डयतः इति अस्ति तस्य वाक्यं. स्थित्यै नाम रक्षणाय, स्थितिः, स्थितिः सामान्यप्रजायाः, लोकस्य अथवा राज्यस्य स्थितिः. स्थित्यै रक्षणाय दण्डयतः तस्य. तत्र मनुस्मृतौ कश्चन श्लोकः अस्ति, तद् मल्लिनाथः तत्र टीकायां तं श्लोकम् उल्लिखति. क कः श्लोकः इति चेत् अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्य दण्डयन् अयशो महदाप्नोति नरकं चैव गच्छति इति वदति मनुस्मृतिः. अदण्ड्यान् दण्डयन् राजा, तत् पदमेव साक्षात् कालिदासः अपि स्थापितवान् पश्यतु. अथवा कृतवाद्वारे पूर्वे सूरिभिः इति उक्तवान् किल एकस्मिन् श्लोके आरम्भे, पूर्वसूरयः वाग्द्वारं कल्पितवन्तः सन्ति, तस्मिन् वाग्द्वारे अहं सूत्रमिव सञ्चारं करोमि. अतः तत् पदं दण्ड्यान् इति पदं साक्षात् एव अत्र उल्लिखितवान् अस्ति कविः. अदण्ड्यान् दण्डयन् राजा, एषः दिलीपः दण्ड्यान् एव दण्डयति, दण्डयितुं योग्याः ये सन्ति तान् दण्डयति. किन्तु अन्यः कश्चन असमीचीनः राजा इति चिन्तयतु, यदि सः अदण्ड्यान् दण्डयन् भवति, दण्डयितुम् अयोग्याः उत्तमाः अथवा निर्दुष्टाः निर्दोषजनाः, तान् यदि कश्चन राजा दण्डयति, अथवा दण्ड्यांश्चैव अदण्डयन् ये दण्डनम् अर्हन्ति तान् न दण्डयति, तान् त्यजति, तान् मुक्ततया विचरितुं त्यजति, तर्हि तादृशः राजा अयशः महद् आप्नोति, सः अयशः प्राप्नोति. अनन्तरं न केवलं तत् इहलोके अपयशः प्राप्नोति, अन्य अमुष्मिन् लोके किं भवति, तस्य नरकं प्रति गच्छति. इहलोके अपि तस्य सद्गतिः न भवति, ख्यातिः न भवति, अनन्तरं तस्य दुर्गतिः अपि भवति, नरकं च गच्छति. अतः दिलीपः तस्मिन् विषये बहु अवधानवान् आसीत्. अपराधिनः एव दण्डिताः भवेयुः, निरपराधिनः कदापि दण्डनं न प्राप्नुयुः इत्यस्मिन् विषये दिलीपः बहु श्रद्धावान् आसीत् इति अत्र कविः वक्तुम् इच्छति. स्थित्यै दण्डयतः तस्य, प्रसूतये परिणेतुः तस्य, प्रजायै गृहमेधिनाम् इति अस्मिन्नेव सर्गे अष्टमे श्लोके वयं द्रष्टुं शक्नुमः. प्रजायै, प्रजा प्रजोत्पत्त्यर्थं सः विवाहं कृतवान् आसीत्, न तु उपभोगाय, धर्मानुष्ठानार्थमेव परिग्रहः. अथ एव पत्न्याः नाम सहधर्मचारिणी इति भवति. तस्य अर्थकामौ धर्मः एव आस्ताम् इति कविः वदति. वयं भगवद्गीतायामपि एतं श्लोकं श्रुतवन्तः स्याम, धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ इति एकः श्लोकः प्रसिद्धः. अयं भावमेव अत्र प्रकटयति एषः श्लोकः. कः भावः इत्युक्ते अर्थकामौ अपि धर्मः एव. श्रीकृष्णः वदति, यस्य कस्यापि जनस्य अविरुद्धः कामः भवति चेत् सः कामः अहमेव अस्मि इति श्रीकृष्णः वदति. अहं सप्तमे अध्याये एकादशः श्लोकः अस्ति, तत्र वदति श्रीकृष्णः, बलवतां बलमस्मि, कामरागविवर्जितं बलमस्मि बलवतां, कामः अपि अस्मि. कामः सर्वदा अनुचितः इति न, यदि तद् सः कामः लोककल्याणाय भवति तर्हि उचितमेव. पठामः, श्रीविवेकानन्दस्वामीविवेकानन्दः वदति, अरविन्दो अपि वदति, हे भगवन् यथेष्टं धनं ददातु इति वदति. परन्तु सन्यासी, भवतः किमर्थं धर्मलिप्सा इति पृष्टः सः. तदा सः उक्तवान्, एतद् ममार्थं, मम कृते न, मदर्थं न, एतत् मम देशाय. मम देशे बहवः दरिद्राः सन्ति, धनरहिताः सन्ति, तेभ्यः अहं याचे इति सः समाधानं वदति. तथा धर्माविरुद्धो भूतेषु, धर्मम् अविरुध्य यः कामः अस्ति सः कामः अहमस्मि, हे भरतर्षभ, हे अर्जुन इति श्रीकृष्णः भगवद्गीतायां वदति. तथैव यत्र यत्र कामः लोककल्याणाय भवति सः कामः धर्ममेव सेवते किल अतः तादृशः कामः कामः भवति चेत् दोषाय न भवति एवमेव अत्रापि भावः प्रकटितः धर्माभिमुखः अस्ति राजा तस्य राज्ञः अर्थः च कामः च अपि धर्ममेव उपसेवते इति सामान्य अर्थः एतं श्लोकमपि वयं सर्वे पठामः स्थित्यै दण्डयतो दण्ड्यान् प्रसूतये अप्यर्थकामौ तस्यास्ताम् धर्म एव मनीषिणः अद्य एतान् चतुरः श्लोकान् वयं दृष्टवन्तः पञ्चविंशतिः श्लोकान् पञ्चविंशतिं श्लोकान् वयम् एतावत्पर्यन्तं पठितवन्तः इदानीं मम एकं चिन्तनम् आसीत् एवमेव वयम् अध्ययनं कुर्वन्तः अग्रे गच्छामः पूर्वतनश्लोकानां विस्मरणं भवति अथवा तत्र अधीताः विषयाः मनसि न तिष्ठन्ति यतः बहवः श्लोकाः सन्ति शतं श्लोकाः सन्ति समग्रे अपि प्रथमसर्गे तर्हि वयं चतुर्धा यदि विभागं कुर्मः प्रथमसर्गस्य तर्हि पञ्चविंशतिश्लोकानाम् एकैकः पादः भवति किल प्रथमसर्गस्य अतः प्रथम पादस्य इत्युक्ते एतावत् पर्यन्तं पठितानां पञ्चविंशतिश्लोकानाम् आधारेण वयं प्रश्नानाम् उत्तरं लिखामः सर्वे अपि अहं प्रश्नान् प्रेषयामि सर्वे अपि तस्य उत्तराणि लिखन्तु यथेष्टं किञ्चित् समयं स्वीकुर्मः चिन्ता नास्ति किन्तु निरन्तरं लेखनाभ्यासेन एव भाषायाः शुद्धिः सम्पद्यते विचिन्त्य लेखनसमये एव वयं वाक्य विचारं कुर्मः अनन्तरं वाक्ये विद्यमानपदानां विषये गभीरतया चिन्तनं कोशस्य परिशीलनम् इत्यादिकं कुर्मः अतः मम निवेदनमस्ति इदानीम् आरभ्य एव प्रथमं आदौ पठामः पञ्चविंशतिः श्लोक एतेषां सर्वेषामपि श्लोकानां भावः तत्र अस्ति भगिनी समये समये स्थापयन्ती अस्ति सर्वमपि व्याख्यानं सर्वम् अतः अध्ययनं कुर्मः डिसेम्बर् प्रथमसप्ताहे वा अथवा ततः पूर्वं प्रश्नान् वयं स्थापयामः तस्य उत्तराणि अपि वयं सर्वे अपि लिखामः प्रार्थना एतेन अद्यतनवर्गं वयं समापयामः पुनः अग्रे अग्रिम सोमवासरे नववादने मिलामः
अस्तु धन्यवादः
नमस्ते धन्यवादः शुभरात्रिः धन्यवादः